त्रयोदशोऽध्यायः क्षेत्रक्षेत्रज्ञविभागयोः अर्जुन उवाच प्रकृतिम् पुरुषम् चैव क्षेत्रम् क्षेत्रज्ञमेव च श्रीभगवान् उवाच इदम् शरीरम् कौन्तेय क्षेत्रमिच्च विधीयते क्षेत्रज्ञम् चापि माम् विद्धि सर्वक्षेत्रेषु भारत क्षेत्रम् यच्च यादृच्च यद्वि कार्य तस्य यत् ऋषिभिर्बहुधा गीतम् छन्दोभिर्विविधै पृथको महाभूतान्यहङ्कारः बुद्धिरव्यक्तमेव च इच्छा द्वेष सुखम् दुःखम् सङ्घातश्चेतना धृतिः अमानित्वमहम् भित्त्वम् अहिंसा शान्तिराज्यम् इन्द्रियाद्येषु वैराग्यम् अनहङ्कार एव च असक्तिरभिसङ्गः पुत्ररागृहादिषु ैचारण्ययोगेन भक्तिरव्यभिचारिणी अध्यात्मज्ञानमित्यत्वम् तत्त्वज्ञानार्थदर्शनम् यत्तत्र वक्ष्यामि यज्ञात्वामृतमश्रुते सर्वसर्वाणि पादम् ततो सर्वतोक्षिशिरोमुखम् सर्वेन्द्रियगुणाभासम् सर्वेन्द्रियविवर्जितम् बहिरन्तश्च भूतानाम् अचरम् चरमेव अविभक्तम् च भूतेषु विभक्तमिव च स्थितम् ज्योतिषामपि तज्ज्योतिः तमसः परमुच्यते इति क्षेत्रम् तथा ज्ञानम् योऽयम् चोक्तम् समासतः प्रकृतिम् पुरुषम् चैव विद्यमादिव भवति कार्यकारणकर्तृत्वे हेतु प्रकृतिरुच्यते उपद्रष्टानुमन्ता च भक्ता भोक्ता महेश्वरः एवम् वेत्ति पुरुषम् प्रकृतिम् च गुणैः ज्ञानेनात्मनि पश्यन्ति केचिदात्मानमात्मना
अन्ये शान्तेन योगेन कर्मयोगेन चापरे
अन्ये एवम् जानन्तः श्रुत्वासते
ये विचारितरन्त्येव मृत्युम् श्रुतिपरायणाः
यावत् सञ्जायते किञ्चित् सत्त्वम् सावरजङ्गम् सर्वेषु भूतेषु तिष्ठन्तम् परमेश्वरम् पश्यन् हि सर्वत्र समवस्थितमीश्वरम् प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः यदा भूतम् गद्भावम् ये कष्टमनु पश्यति अनादित्वम् निर्गुणः परमात्मायमव्ययः यदा सर्वगतम् सौक्ष्मात् आकाशम् नोपलिप्यते यथा प्रकाशयत्येकः कृष्णम् लोकमिमम् प्रणिः
कृष्णम् भवेति भारत
क्षेत्र क्षेत्र चयोरेवं अंतरं जान चक्षुषा
भूत प्रकृति मोक्षं च ये विदुर्याति ते परं
ॐ
तत्सदु इति श्रीमद्भगवद्गीता